इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः आदौ मुख्यवार्ताः प्रधानमन्त्रिणा नरेन्द्रमोदिना कथितं यत् भारतं विकासं परम्पराञ्च स्वीकृत्य अवश्यम् अग्रे गच्छतु राष्ट्रम् औपनिवेशिकमनोवृत्तिञ्च त्यजेदिति च महानदी कोल फील्ड लिमिटेड इति संस्थया ओडिशा राज्ये 35 मिलियन टन इति क्षमतायुतौ नूतनौ कृष्णांगारागारौ उद्घाटयिष्यते। अमेरिका देशः कनाडा देशेन सह व्यापार संवादं निरस्तं कृत्वा नूतन मूल्यानि च शीघ्रमेव घोषयिष्यति। अन्ताराष्ट्रिय परमाणु ऊर्जा संस्था इत्यनेन उक्तं यत् 12 दिवसानां इस्राइल ईरान युद्धानन्तरं गल्फ प्रदेशेषु विकिरणस्य स्तरः सामान्यः एव अस्ति इति। भारतीय बैडमिंटन क्रीडकौ आयुष शेट्टी तन्वी शर्मा च यूएस ओपन इति बैडमिंटन क्रीडायां पुरुष महिला एकलयोः उपान्त्य स्पर्धां प्रविष्टवन्तौ। अपि च अंडर 19 इति क्रिकेट क्रीडायां होब नगरे प्रथमायां युव एक दिवसीय क्रीडायां भारतेन इंग्लैंड दलं 6-2 पराजितम्। अथ वार्ताः विस्तरेण प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् राष्ट्रं विकासं परम्पराञ्च स्वीकृत्य अवश्यं अग्रे गच्छत्विति। नवदेहल्यां आचार्य विद्यानंदजी महाराजस्य शतवार्षिकोत्सवस्य उद्घाटनं कुर्वन् प्रधानमन्त्री अवदत् यत् एतस्य संकल्पस्य आधारेण सर्वकारः देशस्य सांस्कृतिकस्थलानां तीर्थस्थलानाञ्च विकासं कुर्वन् अस्ति। प्रधानमन्त्री अवदत् यत् केन्द्रेण प्राकृतभाषायै शास्त्रीयभाषायाः स्थानं प्रदत्तमस्ति। भारतस्य प्राचीन पाण्डुलिपीनां डिजिटलीकरणायै अभियानमपि प्रचलति। सः राष्ट्रम् औपनिवेशिक चिन्तायाः मुक्तं कर्तुं प्रार्थयत्।
हम भारत की प्राचीन पाण्डुलिपियों को डिजिटाइज करने का अभियान भी चला रहे हैं। इसमें बहुत बड़ी मात्रा में जैन धर्म ग्रंथों और आचार्यों से जुड़ी पाण्डुलिपियां शामिल है। अब हम हायर एजुकेशन में भी मातृभाषा को बढ़ावा देते हैं और इसलिए मैंने लाल किले से कहा है हमें देश को गुलामी की मानसिकता से मुक्ति दिलानी है। हमें विकास और विरासत को एक साथ लेकर आगे बढ़ना है।
कार्यक्रमोऽयम् आचार्य विद्यानंदजी महाराजस्य शततमे जन्मोत्सवावसरे भगवान् महावीर अहिंसा भारती न्यासेन सह सर्वकारेण आयोजितायाः एकवर्षात्मिकायाः राष्ट्रिय श्रद्धाञ्जल्याः औपचारिकारम्भस्य निदर्शनम् आसीत्। कोल इंडिया इत्यस्य सहायक संस्था महानदी कोल फील्ड लिमिटेड इत्येषा संस्था ओडिशा राज्ये 35 मिलियन टन इति संयुक्त क्षमतायुतयोः नूतनयोः अंगारागारयोः उद्घाटनार्थं सज्जितास्ति। सुभद्रा आगारः बलभद्र आगारश्च राज्यस्य अंगुलमण्डलस्य तालचेर अंगार क्षेत्रेषु स्थापिताः भविष्यन्ति इति अस्माकं संवाददात्रा संसूचितम्। MCL इत्यस्य मतेन सुभद्रा आगारे अस्य वित्तीय सत्रस्य अन्तपर्यन्तं प्रतिवर्षं 25 मिलियन टन इति कृष्णांगारस्य उत्पादनं भविष्यति इति निर्धारितमस्ति। अमेरिकीय राष्ट्रपतिः डोनाल्ड ट्रम्पः कनाडादेशेन सह व्यापार संवादस्य समाप्तेः घोषणाम् अकरोत्। अमेरिकादेशस्य कनाडादेशेन सह नूतन शुल्क परिमापः शीघ्रमेव घोषयिष्यते इति सः उक्तवान्। सोमवासरतः एषः करः प्रभावी भविष्यति। अन्ताराष्ट्रिय परमाणु ऊर्जा संस्थायाः महानिदेशकः राफेल मारियानो ग्रोसी इत्येषः अवदत् यत् इस्राइल ईरान देशयोः मध्ये 12 दिवसानां द्वन्द्वानन्तरं गल्फ क्षेत्रे विकिरणस्य स्तरः सामान्यः एव अस्ति, परं ईरान देशस्य अनेकेषां परमाणुस्थलानां महति क्षतिः अभवत्। श्रीगोशी इत्ययम् अन्ताराष्ट्रिय विकिरण निरीक्षण व्यवस्थायाः माध्यमेन नियमितरूपेण IAEA इत्यस्मै प्रतिवेदयन् क्षेत्रीय दत्तांशम् उद्धृत्य उक्तवान् यत् एतत् 48 राष्ट्रसमूहः कथमपि परमाणु ऊर्जा रिएक्टर इत्यतः महत्वपूर्णं रेडियो एक्टिव इत्यस्य निर्गमनं ज्ञातुं शक्नोति इति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः www.newsonair.gov.in वेबसाइट इत्यत्र अथ न्यूजोन एआईआर मोबाइल ऐप इत्यत्र अपि उपलब्धो भविष्यति। उपराष्ट्रपतिः जगदीप धनखड़ः अद्य उक्तवान् यत् संविधानस्य प्रस्तावना एव तस्य आत्मा भवति, सा परिवर्तनशीला न भवतीति।
The preamble of Indian Constitution is unique. The preamble has been imparted by we the people of India, except Bharat. Nobody's constitution's preamble has undergone change. And why? Preamble is not changeable. Preamble is not alterable. Preamble is the basis on which constitution has grown. Preamble is the seed of the constitution. It is soul of the constitution.
नवदिल्ल्यां पुस्तक विमोचन कार्यक्रमं सम्बोधयन् श्री धनखड़ः अवदत् यत् आपत्काले जनाः प्रायः दासत्वं प्राप्नुवन्ति स्म, तस्मिन् समये प्रस्तावनापि परिवर्तितेति। भारतस्य केन्द्रशासित प्रदेशे जम्मू कश्मीरे स्थितायाः किशन गंगा रतले जल विद्युत परियोजनायाः विषये तथाकथित मध्यस्थ न्यायालयेन प्रदत्तः निर्णयः भारतदेशः निराकृतवान् इति। एकस्मिन् वक्तव्ये विदेश मन्त्रालयः अवदत् यत् भारतम् अस्य मध्यस्थता न्यायालयस्य विधिमान्यतां कदापि न अंगीकृतवदिति, तस्य संविधानं सिन्धु जल सन्धेः गभीरं उल्लंघनम् इति अमन्यत्। पहलगाम आततायिनः आक्रमणानन्तरं देशेन सिन्धु जल सन्धिः स्थगितास्ति, यत्र पञ्चवर्षेभ्यः न्यूनवयस्कानां मृत्योः वैश्विकस्तरे 61% तत्रैव भारते 78% यावत् न्यूनीभूतास्ति। केन्द्रीय स्वास्थ्य मन्त्रालयः अवदत् यत् मसूरणा व्याप्तिं वर्धयितुं निरन्तरं ध्यानं दत्त्वा भारतेन अल्पसेवा युक्त जनसंख्यां प्राप्तुं सक्रियं समावेशीयञ्च समीकरणं स्वीकृतमस्ति। मन्त्रालयः अवदत् यत् वैक्सीनेशन इति अत्यन्तं शक्तियुतं मितव्ययी च सार्वजनिक स्वास्थ्य उपायेषु अन्यतमम् अस्ति। ईरान देशेन अद्य इस्लामिक रिवोल्यूशनरी गार्ड्स क्रॉप्स इत्यस्य सेनापतीनां सैनिकानां परमाणु वैज्ञानिकानां इजराइल देशेन सह 12-दिवसीय युद्धे मृतानां नागरिकाणां च राजकीय अन्त्येष्टिक्रिया समारोहः आयोजितः। युद्धकाले मृतानां 6 ईरानी जनानां अन्त्येष्टिक्रियायां भागं ग्रहीतुं राजधानी तेहरान नगरस्य आजादी तिवीथ्यां सहस्रशः शोक संलिप्ताः जनाः समागताः। इस्राइल देशस्य रक्षासेनायाः आक्रमणेन ईरान देशस्य IRGC इत्यस्य प्रमुखः हुसैन सलामी, एकः एरोस्पेस फोर्स सेनापतिः, एकः शीर्ष सेनापतिः, अन्ये भटाश्च वीरगतिं प्राप्तवन्तः। गुजरातस्य पंचमहल मण्डलान्तर्गतं गोधरायां स्थिते श्री गोविंद गुरु विश्वविद्यालये अद्य केन्द्रीय गृह सहकारिता मंत्री अमित शाहेन विभिन्नानां विकासात्मक परियोजनानां आभासीय माध्यमेन उद्घाटनं शिलान्यासं च विहितम्। सः नवनिर्मितस्य सेंटर ऑफ एक्सीलेंस इति भवनस्य उद्घाटनमपि कृतवान्। अद्य वायव्य पाकिस्तान प्रदेशे आत्मघाती आक्रमणे न्यूनातिन्यूनं 16 पाकिस्तानी सैनिकाः मृताः, 39 जनाः अपि व्रणिताः, तेषु 10 सैनिकाः 19 नागरिकाश्च आसन्। पाकिस्तानस्य तालिबान इत्यनेन सह सम्बद्धस्य हफीजुल बहादुर इत्यस्य सशस्त्र समूहस्य आत्मघाती बम्ब वर्षक इति विभागेन आक्रमणं स्वीकृतम्। ऋतु विज्ञान विभागेन आगामीषु 6 उत्तर पश्चिम मध्य पूर्व पूर्वोत्तर भारतस्य च केषुचित् भागेषु अतिवृष्टेः पूर्वानुमानं कृतमस्ति। दक्षिण प्रायद्वीपीय भारते अद्य तमिलनाडुराज्ये तटीय कर्णाटक केरलयोः च प्रचण्ड वृष्टिः भविष्यति। अस्माकं केरल संवाददात्रा ख्यापितं यत् ऋतु विज्ञान विभागेन अद्य राज्यस्य 6 ऑरेंज अलर्ट इति संचेतना प्रसारितास्ति। अन्ते क्रीडावार्तायां, अस्य वर्षस्य यूएस ओपन बैडमिंटन क्रीडायाम् अद्य प्रातः यूएसए देशस्य आयोवा नगरस्य काउंसिल ब्लब्स नगरस्य मिड अमेरिका सेंटर इति मध्ये भारतीय युव क्रीडकौ आयुष शेट्टी तन्वी शर्मा च प्रबल प्रदर्शनेन सेमीफाइनल स्पर्धां प्राप्तवन्तौ। अंडर 19 इति क्रिकेट क्रीडायाम् ह्यः होब नगरस्य काउंटी क्रिकेट क्रीडांगणे प्रथमायां युव एकदिवसीय क्रीडायां भारतेन इंग्लैंड देशः 6 पराजितः। प्रथमं बैटिंग इति कर्तुं निश्चितं कृत्वा आतिथेय इंग्लैंड देशः केवलं 74% धावनांकाः रचितवान् इति वार्ताः।